नवघनश्यामम् पीतकौशेय बाससं सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृते परम्।